गुरु ग्रह बंधु देवा नाम जा ऋषि नाम। यदि आपके जीवन में आपका सम्मान कम हो रहा है, आप काम तो करते हैं लेकिन उसका यश आपको नहीं मिलता, तो इस गुरु ग्रह मंत्र को रोज सुबह 11 बार जपने से आपको यश मिलना प्रारंभ हो जाएगा।
देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। देवानां च ऋषीणां च गुरुं कांचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं।